इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचकः डॉक्टर गणेश हेगडे। अथ वार्ताः। प्रधानमन्त्री श्री नरेन्द्र मोदी अद्य सिक्किम राज्यस्य द्विदिवसीय यात्रार्थं गैंगटॉक नगरं प्राप्नोति। अस्मिन् अवसरे श्री मोदी सिक्किमस्य राज्यपदस्य 50 वर्षाणां समापन समारोहे भागं ग्रहीष्यति। तथा च प्रधानमन्त्री अस्मिन् यात्रावधौ 4000 कोटि रूप्यकाणां बहुविध परियोजनानां उद्घाटनम् आधारशिलास्थापनञ्च करिष्यति। प्रधानमन्त्री श्री नरेन्द्र मोदी प्रोक्तवान् यत् प्रचलित जनगणना कार्यं केवलं सर्वकारीय कार्यं न अपितु सर्वेषां नागरिकाणां दायित्वं वर्तते, यत्र हि सर्वेषां सहभागिता च महत्वपूर्णा विद्यते। ह्यः आकाशवाण्यां स्वस्य मन की बात इत्यस्मिन् कार्यक्रमे राष्ट्रं सम्बोधयन् श्रीमोदी अवदत् यत् प्रत्येकं भारतीयः जनगणना अभियानस्य विषये अवश्यमेव अवगतः भवेत्, यद्धि अयम् विश्वस्य बृहत्तमः जनगणना कार्यक्रमः अस्ति। सः अवदत् यत् ऐषमः जनगणना डिजिटल रूपेण भविष्यति, यत्र गणनकर्तारः सूचनाम् अभिलेखयितुं मोबाइल ऐप इति अनुप्रयोगस्य उपयोगं कुर्वन्ति।
जनगणना 2027 को डिजिटल बनाया गया है। सारी जानकारी सीधे डिजिटल माध्यम में दर्ज हो रही है। घर घर जाने वाले कर्मचारियों के पास मोबाइल ऐप है, वे आपसे बात करके उसी में जानकारी दर्ज करेंगे। इस बार जनगणना में आपकी भागीदारी भी आसान बनाई गई है, आप खुद भी अपनी जानकारी दर्ज कर सकते हैं।
देशस्य परमाणु वैज्ञानिकानां प्रशंसां कुर्वन् प्रधानमन्त्रिणा उक्तं यत् कल्पक्कम् इत्यत्र फास्ट ब्रीडर रिएक्टर इत्यस्य यशः प्राप्तिः भारतस्य परमाणु ऊर्जा यात्रायाः ऐतिहासिक सोपानमस्ति। सः अवदत् यत् इदं रिएक्टर संयन्त्रं पूर्णतया स्वदेशीय प्रौद्योगिक्या निर्मितं वर्तते, तथा च ऊर्जायाः अतिरिक्तं भविष्याय नूतनम् ईंधनमपि उत्पादयिष्यति। राष्ट्रियान्वेषण अभिकरणम् एनआईए इत्यनेन पश्चिमबंगाल राज्ये 79 क्रूड स्फोटकानां प्राप्तेः पश्चात् एकं प्रकरणं पंजीकृतम्। निर्वाचन आयोगेन पश्चिमबंगालस्य आरक्षिदलाय अपि निर्देशः दत्तः यत् राज्ये स्फोटकानां अवैध निर्माणस्य सम्बद्धानां अपराधीनां निगडनाय विशेषाभियानम् आरभन्तु इति। राष्ट्रपतिः द्रौपदी मुर्मुः ग्रीष्मकालीन प्रवासार्थम् अद्यारभ्य हिमाचलस्य 5-दिवसीय यात्रायां भवति। तस्याः यात्राकाले राष्ट्रपतिः शिमलानगरस्य राष्ट्रपति निवासे एव तिष्ठति। राष्ट्रपतिः मंगलवासरे शिमलानगरस्य लोकभवने हिमाचल प्रदेशस्य राज्यपालेन आयोजिते भोज्य भोजने भागं ग्रहीष्यति। बुधवासरे राष्ट्रपतिः अटल सुरंगमार्गस्य भ्रमणं करिष्यति। सा गुरुवासरे पालमपुरे चौधरी सरवान कुमार हिमाचल प्रदेश कृषि विश्वविद्यालयस्य दीक्षांत समारोहे अपि भागं ग्रहीष्यति। पश्चिमबंगाल निर्वाचनस्य द्वितीयस्य अन्तिमस्य च चरणस्य प्रचारः अद्य सायंकाले समाप्यते। अस्मिन् मासे 39 दिनांके द्वितीय चरणे 42-100 निर्वाचन क्षेत्रेषु निर्वाचनं भविष्यति। अवधेयमस्ति यत् पश्चिमबंगाल राज्ये प्रथमचरणे 93.19% अभिलेखात्मकं मतदानं जातम्। केरलम् असम पश्चिमबंगाल तमिलनाडु इति चतुर्णां राज्यानां तथा च एकस्य केन्द्रशासित प्रदेशस्य पुदुचेरी इत्यस्य मतगणना मई मासस्य चतुर्थे दिनांके भविष्यति। निर्वाचन आयोगेन पश्चिमबंगाल राज्ये विधानसभा निर्वाचनस्य द्वितीय चरणस्य कृते कठोर सुरक्षा योजना कृतास्ति, यत्र स्पष्टीकृतं यत् मतदानं बाधितुं मतदातृन् बाधितुं वा यत्किमपि प्रयासः भवति तस्य दृढतया निवारणं भविष्यति। इजिप्त देशस्य कैरो इत्यत्र ह्यः जूनियर शूटिंग विश्वचषकस्य अष्टमे दिने हेमंत बर्मनः रजतपदकं प्राप्तवान्, जुबैर खानः कांस्यपदकञ्च प्राप्तवान्। एताभ्यां सह भारतं पदकस्थानेषु शीर्षस्थाने वर्तते, यत्र 5 स्वर्ण 6 रजत 5 कांस्यपदकानि च सन्ति। आईपीएल क्रिकेट क्रीडायां गतरात्रौ लखनऊ नगरस्थे एकाना क्रिकेट क्रीडांगणे समानांक प्राप्तेः परं सुपर ओवर इत्यस्मिन् रोचके अतिरिक्त क्षेपचक्रे कोलकाता नाइट राइडर्स दलेन लखनऊ सुपर जायंट्स दलं पराजितम् इति वार्ताः।